श्रीगुरुभ्यो नमः हरिः ॐ श्रीपूर्णबोधगुरुतीर्थपयोद्धिपाराकामारिमाक्षविषमाक्षशिरःस्पृशन्ति पूर्वोत्तरामिततरङ्गचरत्सुहंसा देवालिसेवितपराङ्घ्रिपयोजलग्ना जीवेश भेदगुणपूर्तिजगत्सुतत्त्वानीचोच्चभावमुखनक्रगणैः समेता दुर्वाद्यजापतिगिलैर्गुरुराघवेन्द्रवाग्देवतासरिदमुं विमलीकरोतु श्रीराघवेन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्भ्यः अघाद्रिसंभेदनदृष्टिवज्रः क्षमा सुरेन्द्रोऽवतु मां सदायम् श्रीराघवेन्द्रो हरिपादकञ्जानिषेवणाल्लब्धसमस्तसम्पत् देवस्वभावो दिविजद्रुमोऽयम् इष्टप्रदो मे सततम् स भूयात् भव्यस्वरूपो भवदुःखतूलसङ्घाग्निचर्यः सुखधैर्यशाली समस्तदुष्टग्रहनिग्रहेशो दुरत्ययोपप्लवसिन्धुसेतुः निरस्तदोषो निरवद्यवेशः प्रत्यर्थिमूकत्वनिदानभाषः विद्वत्परिज्ञेयमहाविशेषो वाग्वैखरी निर्जितभव्यशेषः सन्तानसम्पत्परिशुद्धभक्तिभिज्ञानवाग्देहसुपाटवादीन् दत्त्वा शरीरोत्थसमस्तदोषान् हत्वा स नो व्याद्गुरुराघवेन्द्रः यत्पादोदकसञ्चयस्सुरनदी मुख्यापगासादिता सङ्ख्यानुत्तमपुण्यसङ्घविलसत्प्रख्यातपुण्यावहः दुस्तापत्रयनाशनो भुवि महावन्ध्यासुपुत्रप्रदः व्यङ्गस्वङ्गसमृद्धितो ग्रहमहापापापहस्तम् श्रये यत्पादकञ्जरजसा परिभूषिताङ्गा यत्पादपद्ममधुपायितमानसाये यत्पादपद्मपरिकीर्तनजीर्णवाचः तद्दर्शनम् दुरितकाननदावभूतम् सर्वतन्त्रस्वतन्त्रोऽसौ श्रीमध्वमतवर्धनः विजयीन्द्रकराब्जोत्थ सुधीन्द्रवरपुत्रकः श्रीराघवेन्द्रो यतिराड्गुरुर्मे स्याद्भयापहः ज्ञानभक्तिसुपुत्रायुर्यशश्री पुण्यवर्धनः प्रतिवादिजयस्वान्तभेदचिन्नादरो गुरुः सर्वविद्याप्रवीणोऽन्यो राघवेन्द्रान्न विद्यते अपरोक्षीकृतश्रीशः समुपेक्षितभावजः अपेक्षितप्रदातान्यो राघवेन्द्रान्न विद्यते दया दाक्षिण्यवैराग्यवाक्पाटवमुखाङ्कितः शापानुग्रहशक्तोऽन्यो राघवेन्द्रान्न विद्यते अज्ञानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयाः तन्द्राकम्पवचः कौण्ठ्यामुखा ये चेन्द्रियोद्भुवाः दोषास्ते नाशमायान्ति राघवेन्द्रप्रसादतः ॐ श्रीराघवेन्द्राय नमः इत्यष्टाक्षरमन्त्रतः जपिताद्भावितान्नित्यम् इष्टार्थास्युर्न संशयः हन्तु नः कायजान् दोषान्नात्मात्मीयसमुद्भवान् सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् इति कालत्रये नित्यम् प्रार्थनाम् यः करोति सः इहामोत्राप्त सर्वेष्टो मोदते नात्र संशयः अगम्यमहिमा लोके राघवेन्द्रो महायशाः श्रीमध्वमतदुग्धाब्धीचन्द्रोऽवतु सदा नघः सर्वयात्राफलावाप्त्यै यथाशक्तिप्रदक्षिणम् करोमि तव सिद्धस्य वृन्दावनगतं जलम् शिरसाधारयाम्यद्या सर्वतीर्थफलाप्तये सर्वाभीष्टार्थसिद्ध्यर्थम् नमस्कारम् करोम्यहम् तव सङ्कीर्तनम् वेद शास्त्रार्थज्ञानसिद्धये संसारे क्षयसागरे प्रकटितो गाधे सदा दुस्तरे सर्वावद्यजलग्रहैरनुपमैः कामादिभङ्गाकुले नानाविभ्रमदुर्भ्रमेमितभयस्तोमादिफेनोत्कटे दुःखोत्कृष्टविशेषमुद्धर गुरो मामग्नरूपम् सदा राघवेन्द्रगुरुस्तोत्रम् व्यपठेद्भक्तिपूर्वकम् तस्य कुष्ठादिरोगाणाम् निवृत्तिस्त्वरया भवेत् अन्धोऽपि दिव्यदृष्टिः स्यादीडमूकोऽपि वाक्पतिः पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्यास्य जपाद्भवेत् यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत्क्षणात् यद्वृन्दावनमासाद्या पङ्गुः खञ्जोऽपि वा जनः स्तोत्रेणानेन यः कुर्यात् प्रदक्षिणनमस्कृतीः स जङ्घालो भवेदेव गुरुराजप्रसादतः सोमसूर्योपरागे च पुष्यार्कादिसमागमे योऽनुत्तममिदम् स्तोत्रम् अष्टोत्तरशतम् जपेत् भूतप्रेतपिशाचादी पीडा तस्य न जायते एतत्स्तोत्रम् समुच्चार्य गुरोर्वृन्दावनान्तिके दीपसंयोजनाज्ञानम् पुत्रलाभो भवेद्ध्रुवम् परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनम् सर्वाभीष्टप्रवृद्धि स्यान्नात्र कार्या विचारणा राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशयः यो भक्त्या गुरुराघवेन्द्रचरणद्वन्द्वम् स्मरन् यः पठेत् स्तोत्रम् दिव्यमिदम् सदा न हि भवेत्तस्यासुखम् किञ्चन किन्त्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात् कीर्तिर्दिग्विदिता विभूतिरतुला साक्षी हयास्योऽत्र हि इति श्रीराघवेन्द्रार्या गुरुराजप्रसादतः कृतम् स्तोत्रमिदम् पुण्यम् श्रीमद्भिर्ह्यप्पणाभिधैः पूज्याय राघवेन्द्राय सत्यधर्मरताय च भजताम् कल्पवृक्षाय नमताम् कामधेनवे दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे श्रीराघवेन्द्रगुरवे नमोऽत्यन्तदयालवे।